उत्तिष्ठ ब्रह्मणस्पदे देवजन्तस्त्वे महे उपप्रयन्त मरुतः सुदानभ इन्द्र प्राशोर्भवास च त्वामिद्धि सहसस्पत्रमर्त्य उपब्रूते धने हिते सुवीर्यम् मरुत आश्वश्व्यम् दधीतयो वाचके प्रैत ब्रह्मणस्पतिः प्रदेव्येतु सोनृता अच्छाभिरन्नर्यम् पङ्क्तिराधसम् देवायज्ञन्नयन्तु नः यो भागते ददाति सोनरम् वसु सधत्ते अक्षितिश्रवाः तस्मा इळाम् सुवीरामाय जामहे सुप्रतोर्तिमनेहसम् प्रदोनम् ब्रह्मणस्पतिर्मन्त्रम् वदत्युक्थ्यम् यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे तमिद्वाचेमा विदधेषु शम्भवम् मन्त्रम् देवा अनेहसम् इमाम् च वाचम् प्रतिहर्यथा नरो विश्वे द्वावो अश्नवत् को देवयन्तमश्नभज्जनम् को वृक्तपरहिषम् प्रप्रधाश्वान्पस्त्याभिरस्थितान्तर्वा भक्षयन् दधे उपक्षत्रम् प्रञ्चेतहन्ति राजभिर्भये चित्सुक्षितिम् दधे नास्य वर्तानतरुता महाधनेनार्भे अस्ति भज्रिणाः